గణపతి గుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆన శృణ్వన్నోదిభిః సేద సాదనం ప్రణో దేవీ సరస్వతీ వాజేభిర్వాజినీవతీ ధీనామ విత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీ గురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమన్యవ ఉతోత ఇషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః యాత ఇషు శివతమా శివం బభూవతే ధనుః శివా శరవ్యాయాతవతయానో రుద్రమృడయా యాతే రుద్ర శివా తనోరఘోరా పాపకాశినీ తయానస్తను భాషంతమయా గిరిశంతాభిచాకశీః యామి శృంగిరిశంతహస్తే బిభర్షస్తవే శివాంగిరిత్రతాం కురు మాహి కుంసీ పురుషం జగత శివే నవచసా త్వా గిరిశార్చా వదామసి యథా నః సర్వమిజ్జగద యక్ష్మగుంసు మనా అసత అద్య వోషదది భక్తా ప్రథమో దైవ్యోభిషక అరేకుశ్చ సర్వాన్ జంభయన్ సర్వాశ్రయాతు ధాన్యః అసవ్యస్తామ్రో అరుణ ఉత బభ్రుస్సు మంగళః యే చేమాగుం రుద్ర అభితో దిక్షుశ్రుతాః సహస్రశో వైశాగుం ఏడ ఈమహే అసవ్యో వసర్పతి నీలగ్రీవో విలోహితః ఉతైనం గోపా అదృశన్న దృశన్నుదహార్యః ఉతైనం విశ్వా భూతాని సదృష్టో మృడయాతినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీఢుషే అథో యే అస్య సత్వానోహంతేభ్యో కరన్నమః ప్రముంచ ధన్వనస్త్వముభయోరార్నియోర్జ్యాం యాశతే హస్త ఇషవః పరాత భగవో వప అవతత్య ధనుస్త్వగుం సహస్రాక్షశతేషుధే నిషేయ శల్యానాముఖా శివోన సుమనా భవ విజ్యం ధనుః కపర్దినో విశల్యో బాణవాగుం ఉత అనేషన్నస్యేషవ ఆభురస్య నిషంగతిః యాతే హేతిర్మీఢుష్టమహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజా నమస్తే అస్వాయుధాయానాతతాయ ధృష్ణవే ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః అథోయ ఇషుదిస్తవారే అస్మన్నితేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికార్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః నమో హిరణ్యబాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమః సస్పింజరాయ త్విషీమతే పథీనాం పతయే నమో నమో బభ్లుషాయ విద్యాధినేనానాం పతయే నమో నమో హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో భవస్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయాతతావిని క్షేత్రానాం పతయే నమో నమః సూతాయా హంత్యాయవనానాం పతయే నమో నమో రోహితాయ స్థపతయే వృక్షానాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షానాం పతయే నమో నమో భువంతయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయ క్రంధయతే పత్తీనాం పతయే నమో నమ కృత్స్నవీతాయ ధావతే సత్వనాం పతయే నమః నమః సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః కకుభాయ నిషంగినే స్తేనానాం పతయే నమో నమో నిషంగిన ఇషుధిమతి తస్కరానాం పతయే నమో నమో వంచతే పరివంచతే స్థాయూనాం పతయే నమో నమో నిచేరపే పరిచరాయారణ్యానాం పతయే నమో నమః శ్రీకావిద్భ్యో జిఘాగుం సద్భ్యో ముష్ణతాం పతయే నమో నమో సిమద్భ్యో నక్తం చరద్భ్య ప్రకృంతానాం పతయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ ఇషుమద్భ్యోదన్వావిభ్యశ్చ భో నమో నమ ఆతన్వానేభ్య ప్రతిదధానేభ్యశ్చ భో నమో నమ ఆయచ్చద్భ్యో విసృజద్భ్యశ్చ భో నమో నమోస్యద్భ్యో విద్యద్భ్యశ్చ భో నమో నమ ఆసీనేభ్య శయానేభ్యశ్చ భో నమో నమ స్వపద్భ్యో జాగ్రద్భ్యశ్చ భో నమో నమస్తిష్ఠద్భ్యో ధావద్భ్యశ్చ భో నమో నమ సభాభ్యః సభాపతిభ్యశ్చ భో నమో నమో అశ్వేభ్యో అశ్వపతిభ్యశ్చ భో నమః నమ ఆవ్యాధినేభ్యో వివిధ్యంతేభ్యశ్చ భో నమో నమ ఉగణాభ్యస్త్రిగుంహతేభ్యశ్చ భో నమో నమో గృత్సేభ్యో గృత్సపతిభ్యశ్చ భో నమో నమో భ్రాతేభ్యో వ్రాతపతిభ్యశ్చ భో నమో నమో గణేభ్యో గణపతిభ్యశ్చ భో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ భో నమో నమో మహద్భ్యః క్షుల్లకేభ్యశ్చ భో నమో నమో రథిభ్యో రథేభ్యశ్చ భో నమో నమో రథేభ్యో రథపతిభ్యశ్చ భో నమో నమ సేనాభ్యః సేనానిభ్యశ్చ భో నమో నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ భో నమో నమ సక్షద్భ్యోరథకారేభ్యశ్చ భో నమో నమ కులాలేభ్య కర్మారేభ్యశ్చ భో నమో నమ పుంజిష్టేభ్యో నిషాఢేభ్యశ్చ భో నమో నమ ఇషుకృద్భ్యో ధన్వకృభ్యశ్చ భో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ భో నమో నమ శ్వభ్యశ్వపతిభ్యశ్చ భో నమః namo bhavaya cha rudraya cha nama sharvaya cha pashupataye cha namo nilagrivaya cha shitikanthaya cha nama kapardine cha vyuptakeshaya cha nama sahasrakshaya cha shatadhanvane cha namo girishaya cha shipivishtaya cha namo vidushtamaya cha shumate cha namo hraswaya cha vamanaya cha namo brahate cha varshiyase cha namo vriddhaya cha samvriddhvane cha namo agriyaya cha prathamaya cha nama Ashave cha jiraya cha nama, shigriyaya cha shibhyaya cha nama, urmyaya cha vasvanyaya cha nama, shrotasyaya cha dvipyaya cha namo jeshthaya cha kanishthaya cha nama, Purvajaya cha parajaya cha namo madhyamaya cha pagalbhaya cha namo jaghanyaya cha budhniyaya cha namo sobhyaya cha pratisadhyaya cha namo yamyaya cha kshemyaya cha namo urvaryaya cha kalyaya cha namo Shlokhyaya cha vasanyaya cha namo vanyaya cha kakshaya cha nama Shravaya cha pratishravaya cha nama Ashushenaya cha shurathaya cha nama Shuraya cha vabhindate cha namo Varmine cha varuthine cha namo Bilmine cha kavachine cha nama Shrutaya cha shrutasenaya cha Namo dundubhyaya cha hananyaya cha namo Drishnave cha pramrushaya cha namo Dutaya cha prahitaya cha namo Nishangine cha shudhimate cha namas Stikshreshave cha yudhine cha namas Swayudhaya cha sudhanvane cha nama Shrutyaya cha pathyaya cha nama Katyaya cha nipyaya cha nama Sudhyaya cha sarasyaya cha namo Nadhyaya cha vaishantaya cha nama Kupyaya cha vatyaya cha namo Vashyaya cha vashyaya cha namo Meghyaya cha vidyutyaya cha nama Idhriyaya cha tapyaya cha namo Vatyaya cha reshmiyaya cha namo Vastavyaya cha vastupaya cha Om Hara 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 Om Namasomaya cha rudraya cha namas Tamraya cha runaya cha nama Shangaya cha pashupataye cha nama Ugraya cha bhimaya cha namo Agre vadhaya cha dure vadhaya cha namo Hantre cha haniyase cha namo Vrikshe bhyo harikeshe bhyo namastaraya nama Shambhave cha mayobhave cha nama Shankaraya cha mayaskaraya cha nama Shivaya cha shivataraya cha nama Stirthyaya cha kulyaya cha nama Paryaya cha paryaya cha nama Prataranaya chottaranaya cha nama Attaryaya cha ladhyaya cha nama Shashpyaya cha phenyaya cha nama Sikatyaya cha pravathyaya cha Nama irinyaya cha prapathyaya cha nama Tigumshilaya cha kshayanaya cha nama Kapardine cha pulastaye cha namo Goshtyaya cha grihyaya cha nama Stalpyaya cha gehyaya cha nama Kattyaya cha gavvaneshthaya cha namo Hradayaya cha niveshpyaya cha nama पागुं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशज्याय च नमोपगुरमाणाय चाभिघ्नते च नमः आखिडते च प्रखिडते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीभत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो एषाम् किञ्च नाममत् या ते रुद्रशिवा तनु शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुं रुद्राय तवसे कपद्दिने शयद्वीराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनो मयस्कृधिक्षयद्वीराय नमसा विधेमते यच्चम् शयोश्चमनुदा यजे पिता ततश्याम तव रुद्र प्रणीतो मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वधे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन हे मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वधीर्हविष्मन्तो नमसा विधेमते आरात्ते गोघ्न उत पोरुषग्ने क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूयधा च न शर्म यच्छ द्विबर्हाः सुहिश्रुतम् गर्त सदम् युवानम् मृगन्न भीममुपहत्तुमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मदिरघायो अवस्थिरा मघवद्भ्यस्तनुष्वमेध्वस्तोकायतनयाय मृडया मेडुष्टम शिवतम शिवो नः सुमना भव परमे वृक्ष आयुधन्निदाय कृत्तिम्बसा न आचर पिनाकम् बिभ्रधा गहि विकिरिड विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुं हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोत्सव हेतयः तासामीशानो भगवः पराचीनामुखाकृधि सहस्राणि सहस्रशो ये रुद्राधिभूम्याम् तेषागुम् सहस्रयोजने वधन्वानि तन्मसि अस्मिन्महत्यर्णवेन्तरिक्षे भवा अधि नीलग्रीवाशितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठादिवगुम् रुद्र उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिका सक्कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिपतो जनान् ये पथाम् पथिरक्षय ऐलभृदा यव्युधः ये तीर्थानि प्रचरन्ति शिकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे teshagum sahasrayo jane vadhanvani tanmase namo rudrebhyo ye prithivyam ye entarikshe ye divye shamannam vato varshamishavastebhyo dasha prachir dasha dakshina dasha pratichir dasho dechir dasho urdhvastebhyo namaste no mridayantu te yam dvishmo yascha no dveshtitam bhojam bhedadhami Trambakam yajamahe sugandhim pushtivardhanam Urvarukamiva bandhanat mrityor mukshiyamamritat Yo rudro agnam yo apsuya oshadishu Yo rudro vishvabhuvana viveshatasmai rudraya namo astu Yete sahasramayutam paśamrityor martyaya hantave Ta yajnasya mayaya sarvanam yajamahe Mrityave swaha mrityave swaha Prananam granthirasi rudro mavishantakaha Tenanyena apyayaswam Namo rudraya vishnave mrityorme pahi Tamushtuhi yasvishusudhan vayo vishvasya kshayati beshajasya Yakshva maheso manasaya rudram namo Bhirdeva vasuranduvasya Ayam mehasto bhagavanayam me bhagavattaraha Ayam me vishvabhesha joyagum shivabhimarshanaha Om Shanti 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 Om Shancha me mayascha me priyamcha me nukamascha me kamascha me saumanasascha me bhadramcha me shreyascha me vasyascha me yashascha me bhagascha me travinamcha me yantascha me dhartascha me kshemascha me dhrutischa me vishvamcha me mahascha me samvitscha me jnatram Chame sus chame prasus chame siram chame layas chamarutam chame mritam chame yakshmam chame namayat chame jivatus chame dirghayutvam chame namitram chame bhayam chame sukam chame shayanam chame susha chame sudinam chame Om Shanti 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 Om Hiranyavarna Sujaya Pavakaya Sujata Kasyapo Yasvindraha Agniya garbham dadire virupastana apashyagusyona bhavanto Yasagum raja varuno yati madhye satyan vrite avapashyam jananam Madhuschutashutayogyapavakastana apashyagasyonabhavanto Yasam devadivikrinvandi bhakshaya antarikshe bahudabhavante Yaprudhivim payasondanti shukrastana apashyagasyona bhavanto Shivena machakshusha pashyata pashivayatanubopas prithatatvacham me Sarvagum agnigum rapsushado huve bhomahi varcho balamo jonidhatta Pavamanas suvarjanaha pavitrena vijarshanihi yappo tasapunatumam पुनन्तु मा देव जनाः पुनन्तु मनवो धिया पुनन्तु विश्व आयवः जात वेद पवित्रवत् पवित्रेण पुनाहि माम् शुक्रेण देवतीर्यते अग्ने क्रत्वा क्रदो गुम्रणो यत्ते पवित्रमर्चिषे अग्ने विततमन्तरा ब्रह्म तेन पुनीमहे उभाभ्याम् देव सवितः पवित्रेण सवेन च इदम् ब्रह्म पुनीमहे वैश्वदेवे पुनते देव्यागात् यस्यै बह्वेस्तनुवो वेतपृष्टाः तया मदन्तः सदमाद्येषु वयग्स्यामपतयोरयीणाम् वैश्वानरो रश्मिभिर्मा पुनातो वातप्राणेने शिरोमयो भूः द्यावा पृथिवी पयसा पयोभिः ऋतापरे यज्ञिये मा पुनीता बृहद्भिः सवितसृभिः वर्षिष्ठै देवमन्मभिः अग्ने दक्षै पुनाहि माम् येन देवा अपुनत येनापो दिव्यङ्गजः तेन दिव्येन ब्रह्मणा इदम् ब्रह्म पुनीमहे यः पावमानी रध्येते ऋषिभिः संवृतगुं रसम् सर्वगुं सपूतमश्नाति स्वदितम् मातरिश्वना पावमानीर्यो अध्येते ऋषिभिः संवृतगुं रसम् तस्मै सरस्वती दुहे क्षीरगुं सर्पिर्मदूदगम् पावमानी स्वस्त्ययनी सुदुगाहि पयस्वतीः ऋषिभिः संवृतो रसः ब्राह्मणेष्वमृतगुं हितम् पावमानीर्दिशन्तु नः इमम् लोकमथो अमुम् कामान् समर्थयन्तु नः देवैर्देवै समाभृताः पावमानी स्वस्त्ययनीः सुदुगाहि कृतश्च्युतः ऋषिभिः संवृतो रसः ब्राह्मणेष्वमृतगुं हितम् येन देवा पवित्रेण आत्मानम् पुनते सदा तेन सहस्रधारेण पावमान्यः पुनन्तु मा प्राजापत्यम् पवित्रम् शतोद्यामगुम् हिरण्मयम् तेन ब्रह्मविदो वयम् पूतम् ब्रह्म पुनीमहे इन्द्रः सुनीते सह मा पुनातु सोमः स्वस्त्या वरुणः समीच्या यमो राजा प्रमृणाभि पुनातु माम् जातवेदामोर्जयन्त्या पुनातु भूर्भुवः सुवः तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपदये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वञ्चिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्तिः। शान्तिः ॐ भूमिर्भूम्नाद्यौर्वरिणान्तरिक्षम् महित्वा उपस्थेते देव्यदितेऽग्निमन्नादमन्नाद्यायाददे आयङ्गौ पृश्निरक्रमीदसनन्मातरम् पुनः पितरम् च प्रयन्सुवः त्रिगुम् शद्धामविराजति वाक्पदङ्गाय शिश्रिये प्रत्यस्य वहद्युभिः अस्य प्राणादपानद्यन्तश्चरति रोचना व्यक्यन्महिषः सुवः यत्त्वा क्रुद्धः परो वपमन्युनायदवर्त्य सुकल्पमग्ने तत्तव पुनस्तो दीपयामसि यत्ते मन्युपरोक्तस्य पृथिवीमनुजध्वसे आदित्या विश्वे तद्देवावसवश्च समाभरन् मनो ज्योतिर्जुषतामाज्यम् विच्छिन्नम् यज्ञगुम् समिमम् दधातु बृहस्पतिर्तनुतामिमम् नो विश्वे देवागिहमादयन्त मेदिनी देवी वसुन्धरा स्यात् वसुधा देवी वासवी ब्रह्मवर्चस पितृणागुश्रोत्रम् चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरी सदने सत्यायने सीता समुद्रवती सावित्री हनो देवी मह्यङ्गी महीधरणी महो व्यतिष्ठात् शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिदिहा वायुमते जलशयने श्रियं धाराजा सत्यन्धोपरिमेदिनी शोपरिधत्तम् परिगाय विष्णुपत्नी महीम् देवीम् माधवीम् माधवप्रिया लक्ष्मीम् प्रियसखीम् देवीम् नमाम्यच्युतवल्लभाम् धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नो धरा प्रचोदयात् महीम् दिवम् महीम् देवीम् विष्णुपत्नीमचूर्याम् प्रतीचीमेनागुम् हविषाय जामः त्रेता विष्णुरुरुगायो विचक्रमे महीम् दिवम् पृथिवीमन्तरिक्षम् तच्छ्रोणैति श्रव इच्छमाना पुण्यग्रश्लोकम् यजमानाय कृण्वते ॐ शान्ति शान्ति शान्तिः अहम् रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुतविश्वदेवैः अहम् मित्रावरुणो वाभिभर्म्यहमिन्द्राग्नि अहमश्विनो वा अहम् सोमावाहनसम् विभर्म्यहम् त्वष्टारमुतपूषणम् भगम् अहम् दाधामि द्रवेणम् हविष्माते सुप्राव्ये ये ये यजामानाय सुन्वते अहम् राष्ट्रे सङ्गमानि वसूनाम् चिकितुषे प्रथमा यज्ञयानाम् ताम् मा देवाव्याधा दुःखपुरुत्रा भूरिस्थात्रा भूर्या वेशयन्ति मया सो अन्नामत्यो विपश्यति य प्राणीति यै शृणोत्युक्तम् अमन्त वो मान्त उपक्षयन्ति श्रुति श्रुतश्रुत वदामि अहमेव स्वयमिदम् वदामि जुष्टम् देवेभिरुतमानुषेभिः यम् काम एतामुग्रम् कृणोमि तम् ब्रह्माणम् तम् ऋषिम् तम् सोमेधा अहम् रुद्राय धनुराता नो मिब्रह्मद्विषेरता एहन्त वा ओ अहम् जनाय समधम् कृणोम्यहम् द्यावा पृथिवे आविवेश अहम् सुवे पितरामस्य मूर्धन्ममयोनिरप्स्वा अन्तस्ता मुद्रे ततो वितिष्ठे भुवनानु विश्वोत्ताम् मूद्याम् पश्मनोपस्पृशामि अहमेव वाता इव प्रवाम्यारभामाना भुवानानि विश्वा परो दिवा पर एना पृथिव्येता पाति महिना सम्बभूव ॐ शान्ति शान्ति शान्तिः यो ब्रह्मा ब्रह्मण उज्जहार प्राणे शिरकृत्तिवासा पिनाकी ईशानो देवत्सन आयुर्दधातु तस्मै जुहोमिह विशाकृतेन विभ्राजमानः शरीरस्य मध्या द्रोचमानो घर्मरुचिर्य आगात् स मृत्युपाशानपनुद्य घोरानिहायुषेणो घृतमत्तु देवः ब्रह्म ज्योतिर्ब्रह्म पत्नीषु गर्भम् यमाददात् पुरुरूपम् जयन्तम् सुवर्णरम्भग्रहमर्कमर्चम् तमायुषे वर्धयामो घृतेन श्रियम् लक्ष्मीमो बलामम्बिकाङ्गाम् षष्टीम् च यामिन्द्रसेनेत्युदाहुः ताम् विद्याम् ब्रह्मयोनिकुम् स्वरूपामिहायुषे तर्पयामो घृतेन दाक्षायण्यः सर्वयोन्यस्य योन्यः सहस्रशो विश्वरूपाविरूपाः ससूनवः सपतयस्य योध्या आयुषेणो घृतमिदम् दुषन्ताम् दिव्यागणा बहुरूपा पुराण आयुश्चिदो न प्रमथ्यन्तु वीरान् तेभ्यो जुहोमि बहुधा घृतेन मान प्रजागुम् रीरिषो मोत वीरान् एकः पुरस्तात्य इदम् बभूव यतो बभूव भुवनस्य गोपाः यमप्येति भुवनगुंसाम् पराये स नो हविर्घृतमिहायुषेत्तु देवः वसून्रुद्रानादित्यान् मरुतोऽथ साद्यान् ऋभून् यक्षान् गन्धर्वागुश्च पितृगुश्च विश्वान् भृगून् सर्पाकृश्चाङ्गिरसोऽथ सर्वान् घृतगुम् हुत्वा स्वायुष्यामहयाम शश्वत विष्णो त्वम् नो अन्तमः शर्म यच्च सहन्त्या प्रतेधारामधुश्च्युत उत्सम् दुह्रते अक्षितम् ॐ शान्ति शान्ति शान्तिः ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गै सुष्ठुभागुंसस्तनुभिः यशेम देवहितं यदायुः स्वस्ति नगिन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्षो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः जानुदग्निमुत्तरभेदें घात्वा अपां पूरयते अपागुं सर्वत्वाय पुष्करपर्णगुं रुक्मं पुरुषमित्युपदधाति तपो वै पुष्करपर्णम् सत्यगुं रुक्मः अमृतं पुरुषः एतावद्दावास्ति यावदेतत् यावदेवास्ति तदवरुन्धे कूर्ममुपदधाति अपामेव मेघमवरुन्धे अथो स्वर्गस्य लोकस्य समष्ट्यै आपमापामपः सर्वाः अस्मादस्मादितो मुदः अग्निर्वायुश्च सूर्यश्च सहसं च स्करर्धिया इति वायुवश्वारश्मिपतयः लोकं प्रणच्छिद्रं प्रण यास्तिस्रः परमजाः इन्द्रघोषा वो वसुभिरेव हे वेति पञ्चचितय उपददाति पान्तोऽग्निः यावानेवाग्निः तञ्चिनुते लोकं प्रणया द्वितीयामुपदधाति पञ्चपदा वै विराड् तस्या वा इयं पादः अन्तरिक्षं पादः द्यौः पादः दिशः पादः परोरजापादः विराज्येव प्रतिष्ठते य एतमग्निञ्चिनुते य उचैनमेवं वेद अग्निं प्रणीयोपसमाधाय तमभित एता अभीष्टका उपदधाति अग्निहोत्रे दशपूर्णमासयोः पशुबन्धे चातुर्मास्येषु अधो आहुः सर्वेषु यज्ञक्रतुष्विते अतः स्माकारुण स्वायम्भुवः सावित्रसर्वोऽग्निरित्यननुषङ्गम् मन्यामहे नानावाहेतेषा वीर्याणि कमग्निञ्चिनुते सत्रियमग्निञ्चिन्मानः कमग्निञ्चिनुते सावित्र्यमग्निञ्चिन्मानः कमग्निञ्चिनुते नाचिकेतमग्निञ्चिन्मानः कमग्निञ्चिनुते चातुर्होत्र्यमग्निञ्चिन्मानः कमग्निञ्चिनुते वैश्वसृजमग्निञ्चिन्मानः कमग्निञ्चिनुते उपानुवाक्यमाशुमग्निञ्चिन्मानः कमग्निञ्चिनुते इममारुणकेतुकमग्निञ्चिन्वान इति वृषाभा अग्निः वृषाणोऽसग्स्फालयेत् हन्येता ಸ್ವಸ್ಯ ಯಜ್ಞಃ ತಸ್ಮಾನ್ನಾನುಷಜ್ಯಃ ಸ್ವೇ ಉತ್ತರ ವೇದಿ ಶುಕ್ರದಿಷು ಚಿನ್ವೀತ ಉತ್ತರ ವೇದ್ಯಾಗ್ರಹ್ಯಗ್ನಿಶ್ಚೀಯತೇ ಪ್ರಜಾಕಾಮಶ್ಚಿನ್ವೀತ ಸ್ವಸ್ತಿ ಪ್ರಜಾಭ್ಯ ಪರಿಪಾಲಯಂತ ನ್ಯಾಯೇಣ ಮಾರ್ಗೇಣ ಮಹೀ ಮಹಿಷಾ ಗೋಬ್ರಾಹ್ಮಣೇಭ್ಯ ಶುಭಮಸ್ತು ನಿತ್ಯಂ ಸಮಸ್ತ ಲೋಕಾಃ ಸುಖಿನೋ ಭವಂತು ಸಮಸ್ತ ಲೋಕಾಃ ಸುಖಿನೋ ಭವಂತು ಸಮಸ್ತ ಲೋಕಾಃ ಸುಖಿನೋ ಭವಂತು ಓಂ ಶಾಂತಿ.